स्तुतासुरैः पूर्वमभीष्टसंश्रयात् तदा सुरेन्द्रेण दिनेषु सेविता करोतु सा न सुपहेतुरीश्वरीम् शुभानि भद्राण्यभिहन्तु चापतः या साम्प्रतं सोत्थददैत्यताभितैर्रस्माभिरीसा च सुरैर्नमस्यते या सस्मृदा तत्क्षणमेव हन्ति नः सर्वापतो भक्तिविनम्रमूर्तिभिः ऋषिरुवाच एवं स्तवादियुक्तानां देवानां तत्र पार्वती स्नातुमव्याययौतो ये जाह्नव्यानृपनन्दन साब्रवीतान् सुरान् शुभ्रोर्भवद्भिस्तूयतेऽत्र का शरीरकोश तच्छास्या समुद्भूता प्रविशिवा स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः देवैः समेतैः समरे निशुम्भेन पराजितैः शरीरकोशात् यत्तस्या पार्वत्या निःश्रिताम्बिका कौशिकीति समस्तेषु तथा लोकेषु कीयते तस्यां विनकदा यान्तु कृष्णाभूत्साभि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया तदोऽम्बिकां परं रूपं बिभ्राणं सुमनोहरं तदशचण्डो मुण्डश्च प्रत्यौशम्बनिशुम्भयोः